यदिन्द्राहं यथात्मभिषीयवस्वये शिक्षेयमस्मीपते मनीषिणे यदहं गोपति स्याम् जयनुष्टायिन्द्रसूनृता यजमानाय सम्पते रामस्वम् विद्युषी दुहे ते वर्ता श्रीराभस इन्द्र देवो न मत्याः यद्वित्सदिस्तुतो मुखम् यज्ञ इन्द्रमवर्धयद्यद्भूमिम् व्यवर्धयत् चक्राणवोपशम् दिवि वावृधानस्य देष्वाधनानि जिज्ञुषाः भूतिन्द्रविक्षमतिरन्मते सोमस्य रोचना इन्द्रो यदभिनद्बलम् उद्गाजदङ्गीरोभ्याविष्कृण्वन् गुहासतीः अर्वाञ्चम् ननुदे बलम् इन्द्रेणलोचनादिवो दृढानि दृम्भितानि च स्थिरानिरपरानुदेः अपामोर्निर्मदन्निभस्तोम इन्द्रादिराजते विधेमदाः अरादिषु ्रास्युक्तवर्धनः सोदृणामुतभद्रकृत् इन्द्रमित्येशिलाकरी सोपवेराजवक्षतः उपयज्ञम् सुराधसम् अपाम् फेनेन नमूचे शिर इन्द्रोदवद्भजः विश्वायदज यस्पृथाः मायाभिरुत्सृत्सद इन्द्रज्यामानुरुक्षदः अवदस्योऽङ्ग्रदूनुताः असुन्वामिन्द्रसंसदम् विषूचीम् जनासजः सोमपावुत्तरो भवन् तम्रभिप्रकायतपुरुहूतम् पुरुष्टुतम् इन्द्रम् गीर्भिस्तविषमाविवासत यस्य द्विपर्गसो बृहत्सहो दाधाररोदसी गिरीङ्ग्रज्राम् अपस्वरवृषत्वना सराजसि पुरुष्टुताङ्गेको वृत्राणि जिघ्नसे इन्द्रजैत्राश्रवस्याः जयन्तवे तम् देवदम् गृणीमसि वृषणम् मृत्सुसा सहिम् लोककृत्रुमद्रिवो हरिश्रियम् येन ज्योतिम् शाजवे मनवे च विवेदिथ मन्दालो अस्य बर्हिषो विराजसि तदद्याचित्तबुद्धिरोऽनुष्टुवन्ति पूर्वथा गृहपत्नीरपोजयादिवेदिवे तवत्ययिन्द्रियम् बृहत्तपसुष्णमुदक्रतुम् वज्रम् द्विजादिषणापरेण्यम् तवद्योरिन्द्रपौंस्यम् पृथिवीवद्धति श्रवाः रामापर्वतासस्तहिन्विरे राम् विष्णुर्बृहन् क्षयो मित्रो गृणादिमरुणः स्वाम् सद्भो मदत्यनुमारुतम् त्वमृषादनानाम् मङ्गिष्ठ इन्द्रजिज्ञिषे सत्रा विश्वास्वपत्यानि दधिषे सत्रा त्वम् पुरुष्टुताङ्गेको वृत्राणि तोषसे नान्य इन्द्रात्करणम् भूज इन्द्रति यदिन्द्रमन्मदस्वानाहमन्तभूतये अस्माकेभिन्द्रभिरत्रास्वर्जय अरम् क्षया जनो महे विश्वारूपाण्याभिषम् इन्द्रम् चैत्राय हर्षया सधीपतिम् सम्राजम् कर्षणीनामिन्द्रम् स्तोतानम् यम् गीर्भिः नरम् वृषाहम् मङ्गिष्ठम् यस्मिन्नुक्था निरण्यन्ति विश्वानि च श्रवस्याः अपामबोनसमुद्रे तम् सुष्ठुत्याविवासे ज्येष्ठराजम्भरे कृत्रम् महोवादिनम् सनिभ्याः यस्यानूनागभीरामदा गुरवस्तरुत्राः अर्षवन्तः सूरसातौ तमिद्धनेषु हितेष्वधिवाकाय हवन्ते ये रामिन्द्रस्ते जयन्ति तमिच्छौत्नैराज्यम् दिशम् कृतेभिश्चर्षणजाः एष इन्द्रोपरिभस्कृत् इन्द्रो ब्रह्मेन्द्ररिषिरिन्द्रः पुरुपुरुहूतः महान्महीभिस्वजीभिः सस्त्वम् यस्वहव्यः सत्यः सत्त्वादुविकूर्मिः एकश्चित्सन्नभिभूतिः समर्केभिस्तम्भिस्तङ्गा यत्रैश्चर्षणजाः इन्द्रम् वर्धन्ति क्षितजाः गणेतारम् वस्यो अच्छाकर्तारम् ज्योतिः समत्सु सासह्वांसम् युधामित्रान् स नः पप्रिः पारजाति स्वस्तिना वापूरुहूतः इन्द्रो विश्वादिद्विषाः सत्वन्न इन्द्रवादेभिर्दशस्या च गातुजा च अच्छा च नः सुम्नम् नेषि आयाहिषुभाहित इन्द्रसोमम् पिबाजिमम् एदम् वर्गिः स धोमम आत्वा ब्रह्मयुजाहरीवहतामिन्द्रकेशिनाः उपब्रह्माणि न शृणु ब्रह्माणस्त्वापजम् युजासोमपामिन्द्रसोमिनाः सुतावन्तोहवामहे आ नो जाहि सुतावतोऽस्माकम् सुष्टुतीरुप इवासुरि पृण्णन्धसः आदेशञ्चाभिक्षोरगात्राभिधावतु गृभाय जिह्वजा मधु स्वादिष्टे अस्तु संसृते मधुमान् वन्दे एतव सोमः समस्तु ते हृदे अजमुत्वा वितर्षणे जनीरिभाभिसंवृतः रसोम इन्द्रसर्पतु विग्रीवो वपोदरस्व बाहुरन्ध सोमदे इन्द्रो वृत्राणि जिघ्नरे पुरस्त्वम् विश्वस्येषा नवोजसा वृत्राणि वृत्रहञ्जहि दीर्घस्ते अस्त्वम् कुशोजे नावसु प्रयच्छसि यजमानाय सुन्वते अयन्त इन्द्रसो मौनिभूतो अधिबर्हिषि ये हीमस्यद्रपापिब साजी घोषाजी पूजनायम् रणायते सुतः आखण्डलप्रभूयसे यस्ते शृङ्गवृषो न पात्प्रणपात्कुण्डपाय्याः ज्ञास्मिन्द्रामनाः स्कोष्पदे ध्रुवास्थूनाम् सत्रम् सोम्यानाम् रप्सो भेत्ता पुराम् सस्वदीनामिन्द्रो मुनीनाम् सखानुर्यजतो गवेश नलेकः सन्नभिभूय सः भूर्निमस्वम् नयत्तुजा पुरो गृभेन्द्रम् सोमस्य पीतये इदम् नूनमेषाम् सुम्नम् भिक्षेतमत्याः आदित्या नाम पूर्जम् सवीमणि अनर्वाणो ह्येषाम् पन्था आदित्यानाम् अलब्धाः सन्ति पाजवस्तुके वृथाः तत्सुरस्य विदा भगो वरुणो मित्रो अर्जमा कर्म यच्छन्तु सप्रसोदीमहे देवेभिर्देव्यधितेरिष्टभर्मन्नागहि स्मत्सूरिभिः पुरुक्रियेषु धर्मभिः ये हि पुत्रासो अदितेर्विदर्द्वेषाम् श्रियोतवे अम्भोऽस्ति दुरुचक्रजो नेहसाः अदितिर्नो दिवा पशुमदितिर्नक्तमध्वजाः अदितिः पात्वम्भसः सदा वृथा नो दिवा मतिरदितिरुत्यागमत् सा सन्तादिमयस्करदवसृधाः ఉదగ్యాదేవ్యాషజాసన్నకరతో అశ్వినా జుజాతా వితోరతో అపసృధ సమగ్నిరగ్నిభిః కరచ్ఛన్నస్తపదు సూర్యాః సంవాతో వాత్మరపా అపసృధ అపామీ వామపసృధమపాసే తదుర్మతిం ఆదిత్యాసో జుజోత నానో అంహసః జుజోతాసరూపస్మదా ఆదిత్యాస ఉతామాదిం విషగ్వేణ కృణుత విశ్వవేదసః అత్సురః శర్మాయచ్చదాదిత్యాయన్మోచతి యేన సోంద్రం శిలేన సస్సు దానవః యో నః కశ్చిద్రిరక్షతిరక్షస్వేన మర్త్యాః స్వైశ్వరేవైరిరిశేష్టయుజ్జనాః సమిత్తమఘమస్తవద్దుష్వం సమ్మత్యం రిపుం యో అస్మత్రా వాగ్ముపద్వజుః పాకత్రాస్థన దేవా హృత్సుజానీకమత్యం ఉపద్వయం చాద్వయం చ వసవః ఆశర్మ పర్వతానామోతాపామ్రీణీమహే యావాక్షామారే అస్మద్రపస్కృతం ఏనో భద్రేణ శర్మణాయుష్మాకం నావాసవః అదివిశ్వారిగురిరాపీవర్తన ఉచేతనా యతత్సుభద్రాఘీయాయుర్జీవసే ఆదిత్యాసస్సు మహసః కృణోతన యజ్ఞో హీలో భో అంతర ఆదిత్యా అస్తి మృణత యుష్మే యజ్ఞో అపిష్మసి సజాత్తే బృహద్వరూధం మరుతాం దేవం త్రాతారమస్వినా మిత్రమీ మహేవరూణం స్వస్తయే అనేహో మిత్రార్యమం నృవద్వరుణసంశ్యం నృవరోధం మరుతోయంతరచ్ఛర్దిః యే సిద్ధి మృత్యుబంధవ ఆదిత్యామనభస్మసి ప్రసూనాయుర్జీవసే దివేతన రంగోర్ధయా స్వర్ణం దేవాసో దేవమరచిం దధన్విరే దేవత్రాహద్యమోహీరే విభూతరాజిం విప్రసిప్రసోజిషమగ్నిష్మయంతురం అస్య మేధస్య సోమ్యస్య శోభరే ప్రేమధ్వరాయ పూర్వ్యం యజిష్ఠం పావృమహే దేవం దేహే భత్రాహోతారమమద్యం అస్య యజ్ఞస్య సుక్రతుం ఊర్జోన పాతం సుభగం సుదీదిమగ్నిం శ్రేష్ఠ శోచిషం సమా మిత్రస్య వరుణస్య సో అపామా సుమ్నం యక్షతే దివి యః సమిధాయ ఆహూతీయో వేదేన దదా సమర్థో అగ్నయే యో నమసా స్వధ్వరః తస్యే దర్వం తోరం హయంత ఆశవస్తస్య ద్యుమ్నిత మంజసాః నమతమం భో దేవకృతం కుతశ్చన నమత్య కృతం న సత్ స్వగ్నయో వో అగ్నిభిః శ్యామ సూనో సహస ఊర్జాంబతే సువీరస్త్వమస్మయః ప్రశంసమానో అతిథిర్న మిత్రియోగ్నిరథో న వేద్యాః ే క్షేమా సో అపి సంతి సాధవస్తం రాజాదీనా సో అధ్యాధాస్వద్భరోమర్తస్వగస ప్రశంస్యా సీభిరస్సు సనీత యమూర్ధో అధ్వరాజతిష్టశిక్షయద్వీరస్వసాధవే సో అర్వద్భిస్ సనీత సవిపన్యభిస్సూరైస్ సనీత కృతం గర్వర్గృహే స్తోమంతనో దధీత విశ్వమార్యః హవ్యా వావేవీషద్విషాః విప్రస్య వాస్తు పతస్సహసోజహో భక్షూతమస్య రాజిషు అమోదేవముపరీమత్యం కృధివసో విదుషో వచాః यो अग्निम् हव्यदाद्यभिर्नमोभिर्वा सुदक्षमाविवासति गिरावाजिरसोजिषम् समिधायो निशीदीता सदति किम् धामभिरस्यमत्याः विश्वेत्सधीभिः सुभगोजनाग्नैरुग्नजीवतारिषत् तदग्ने द्युम्नमाभरयत् सा सहत्सदनेकम् चिदत्रिणम् मन्यम् जनस्य रूढ्याः येन दष्टे वरुणो मित्रो अर्यमायेन न सत्या भगाः वयम् दत्ते सपसागा दुवित्तमालिन्द्रक्रोताभिधेमहि ते भेदग्ने स्वाध्यो प्रणिरधिरेक्षसम् विप्रासो देव सुक्रतुम् तयिद्वेदिम् सुभगदाहूतिम् ते सोतुम् चक्रिरे दिवि तयिद्वाजेभिर्यज्ञर्महद्धनम् ये त्वे कामम् ये रिरे भद्रो नो अग्निराहूतो भद्रा राजिः सुभगभद्रो अध्वरः भद्रावत प्रशस्तयः भद्रम् मनः कृणष्टवृत्रदुर्येजेना समत्सु सासहाः अवस्थिरातनु हि भूरि सद्धराम् मने माते अभिष्टिभिः ईरे गिरामनुर्हितम् यम् देवादूतमाधरिण्ये धिरे यज्येष्ठम् हम् जवाहनम् इग्मजम् भाजतरुणाय राजते प्रयोगाय स्वग्नजे यः पिंसते सुनृताभिः सुवीर्यमग्निर्घृतेभिराहूतः यदी घृतेभिराहूतो वासीमग्निर्भरतमुच्चावच असूर इव निर्निजम् यो हव्यान्यैरायतामनुर्हितो देव आसासु गन्धिना इवास देवान्यानि स्वध्वरो होता देवो अमत्यः जग्नेमत्यस्त्वम् स्यामहम् मित्रमहो अमर्त्यः सहसूनबाहुत नत्वा रासी याभिषस्तजेव सोनपाय सन्त्या ीवानदुर्हीतस्यादग्नेन पापया त्रिदुर्णपुत्रः सुभृतो दुरो न आदेवाङ्के दुःप्रलोहदिः तपाहमग्नभूतिभिर्ने दृष्टाभिस्रते यजोषमापसो सदा देवस्य मत्याः तव कृत्वा समेधम् तव रातिभिरग्नेतव प्रशस्तिभिः वामिरा आहु प्रमाजिम् रसोममाग्ने हर्षस्वदातवे रसो अग्नेतभोतिभिः सुवीराभिस्तिरते वाजभर्मभिः यस्य त्वम् सख्यमापराः तव द्रप्सो नीलवान् वासरित्रिरन्धानस्तवाददे त्वम् मालीनामुषसामसे प्रियः क्षपो वस्तुषु राजसि तमागन्मशोभरयः सहस्रमुष्कान् स्वभिष्टिमवसे सम्राजम् दासदस्यवम् यस्य ते अग्ने अन्ये अग्नय उपक्षितो भजाजीव इपो नद्युम्नानि यो वेदनानाम् तव क्षत्राणि वर्धयन् यमादित्यासो अद्युहः पारम् नय समत्यम् भगोधाम् विश्वेषाम् सुदानवः यूयम् राजा नः कञ्चिच्चर्षणी सहाक्षयम् तम् मानुषा ननु वयम् देवो वरो न मित्रार्यमास्यामे धृतस्य रथ्याः अदान्मे पौरुगुत्स्यः पञ्चाशतम् रसदस्युर्वधूना ब्रह्मिष्ठो अर्यः सत्त्वादिः उतमे प्रययोर्वययोः सुवा स्वाधिरुग्वनि శ్రీణాం సత్ప్రదీనాం శాపప్రణేతాభూవద్వసుర్ధియానాం పతీః ఆగంతామారీషణ్యత ప్రస్థావానోమాపస్థాదాగమన్యవః స్థిరాదిన్నమయిష్ణవః వేణుపవిభిర్మరుదర్వక్షణారుద్రాసస్తుదీతిభిః ఇషానో అద్యాగతాపురస్పృహో యజ్ఞమాసో భరీయవాహ యేద్వాహి రుద్రియాణాం సుష్మాముగ్రం మరుతాం శిమీవతాం విష్ణో రేణస్య మీరురాం యద్వీపాని పాపదం తిష్టద్దుచ్చునో భేయూజంతరోదసీ రథన్వాన్యైరథశుభ్రఖాదయోజదేజధస్వభానవః అచ్యూతాచిద్వో అధ్మన్నానాదధి పర్వతాసో వనస్పతీః భూమిర్యామేషు వేదతే ఆయవో మరుతో జాతమేద్యోర్జీలముత్తరా బృహద్ యద్దానరోదేతి సతే తనూష్వాత్వక్షాంసి బాహ్వోజతః స్వధామనుసృజం నరో మహి త్వేషా అమవంతో వృషప్సవః మహందే అహ్రూతప్సవః గోభిర్బాణో అద్య దేశో భరీనాం రథే కోసే హిరణ్యే గోబంధవస్సు జాతాసీషే భుజే మహాంతో నస్మరసేను ప్రతీవో వృషదంజజో వృష్ణే శబ్దాయమారూతాయ భరధ్వం హవ్యావృషప్రజావ్నే వృషణస్వేన మరుతో వృషప్సునారథేన వృషనాభినా ఆశేనాసో న పక్షిణో వృధానరో హవ్యానో వీతయే గత సమానమంజేషాం విభ్రాజంతే రుక్మాసో అధి బాహుషు విద్యుదృష్టజాః ముగ్రాసో వృషణముగ్రవాహవో నష్టనూషు జేతిరే శిరాధం వాణ్యాజూధారథేషువోనీకేష్వధిశ్రియామన్నో న సప్రసో నామత్రేషం సస్వతామేకమిద్భుజే మయో నిత్యం సహ తాన్వందస్వమరుతస్తాముగస్తు హితేషాం విధునీనాం అరాణాన్న చ గమస్తదేషాం దానామన్నాతదేషాం సుభగస్సవభూతిష్మాసపూర్వా సుమరుతోర్భ్యోక్షిషు యో వా నూనముతాసతి యస్య వాయూజం ప్రతి వాజినో నర ఆహవ్యాభీతయే గత అభిరజుమ్నైరుతవాజసాదిభిః సుమ్నావో ధూతయో నసత్ యథా రుద్రస్య సూనవో జివో వసంత్యసూరస్య వేదసాః యువా నస్తతేజసత్ ఏచారుహంతి మరుదసురానభస్మన్మేరుషస్తరందియే అదస్తిగానముపమస్య సాహృదా యువానావృధ్వం యూనా భూషుణ విష్టజా వృష్ణః పావకాన్ అభిసో భరే గిరా గాయగాయీ వచర్కృషత్ సాహారే సంతి ముష్టిహేవహం యో విశ్వాసు వృత్సుహోత్రేషు కృష్ణశ్చంద్రాన్న సస్రవస్తమామిరావందస్వమరుతో అహ కామశ్చిద్ఘాసమన్యవస్స జాత్యేన మరుతస్తబంధవః విహతే కగుభో మిథః మర్తశ్చిద్వో నృతమో రుక్మవక్షసముపభ్యాధృత్వమాయతి అధీనో గాతమరుతస్ సదాహివ ఆభిత్వమస్తి నిద్రూవి మరుతో మారుతస్య న ఆభేషజస్య వరతాసుదానవః యూజం సఖాయ సప్తజః యాభిః సింధుమవధజాభిస్తూర్వధజాభిర్దశస్య థాకృమిం अजो नो भूतो दिभर्मजो भुवशिवाभिरसदद्विषः यत्सिन्धौ यतसज्ञाङ्गच्च मुद्रेषु मरुतः सुबर्हिणः यत्पर्वतेषु भेषजम् विश्वम् पश्यम् तो बिभृता तनूष्वातेना नो अधिवोचत क्षमारपो मरुत आतूरस्य न युष्कर्ता विकृतम् पुनाः भद्रम् न अपि वातयमनाः हरिः ओ वजमुद्रामूर्यस्तूरन्नगच्चिद्भरम् तो वस्य वाह भाजे चित्रम् वामहे उपत्वा कर्मम् नूतये समोजुभोग्रश्चक्रामजो धृषत् स्वामिद्यवितारम् वृमहे सखाय इन्द्रसानसिम् आया हीम इन्दवोऽश्वपते गोपत उर्वरापते सोमम् सोमपते पिब भयम् हित्वा बन्धुमन्दमबन्धवो विप्रास इन्द्रये भीम जाते धामानि मृणभतेभिरागहिविश्वेभिः सोमपीतये ईदन्तस्ते वयो यथा गो श्रीते मधौ मधिरे विवक्षणे अभित्वामिन्द्रनोनुमः अच्छा तत्त्वैना नमसापदामसिं मुहस्तिद्वजीदयः सन्धिकामासो हरिमो दजष्ट्वां स्मो भयं सन्ति नो धियाः नोत्रायजिन्द्रते भजभूति अभूमन हि नूते अद्रिवः विद्वा पुरा परीन सह विद्वा स क्षिप्रमुत सूरभोज्या अमादेता वज्रिणीमहे उतोषमस्मिन्नाशीषी नो वसो वाजेषु क्षिप्रगोमति यो न इदमीदम् पुरा प्रवस्य आदिनायतमो वस्तुषे सखायजिन्द्रमूतये अर्यस्वम् सत्तादिम् चर्षणी स हंसयेष्मायो अमन्तत आतु नः सवयसि गव्यमश्यम् सोदृभ्यो मघवासनम् जाहसि विद्युदा भजम् प्रतिश्वसन्तम् मृषभ्रुवीमहि संस्थेजनस्य गोमतः येमकारे पूरुहूतकारिणोऽभितिष्ठेम धूर्ध्याः नृभिर्वृत्तम् हन्याम सूचयाम चावेरेन्द्रप्रणोधियाः अभ्राद्रव्यो अनात्मनाभिरिन्द्रजनुषा सनादसि युधेधा विद्वमिच्छसे न गीरे वृन्दम् सख्याय विन्दसे पीयम् दिते सुरा स्वाहा यदा गृणोषीणम् समूहस्यादित्विते बहूयसे माते अमाजुरो यथा मूरास इन्द्रसख्ये त्वावतः निषदामसचासुते माते गोदत्र निररामराध स इन्द्रमाते गृहामहि गृहादिधर्यः प्रवेशाभ्याभरणते दामान आदभे इन्द्रो भागे दियम् मघम् सरस्वती वासुभगा दधिर्वसु वम्बाचित्रदासुषे चित्रयिद्राजा राजकायुधम् जके जके सरस्वती मनो पर्जन्यजिव ततदद्धिवृष्ट्या सहस्रमयुता ददत् ओच्यमः पारथ मज्जादम् दृष्टभूतये यमश्विना सुभवो रुद्रवर्तनी आसूर्यायेतस्ततुः पूर्वाहुरम् सुभगम् पुरःस्पृहम् भुज्यम् वाजेषु पूर्व्यम् सतनावन्तम् सुमतिभिः सोभरे विद्वेषसमरेहसम् इहत्या पूरुभूतमा देवानमो विरश्विना अर्वाचीना स्वशेखरमहे हन्ताराधासुरो गृहम् इवो रथस्य परिचक्रमीयत ईर्वाण्यद्वामिषण्यति अस्माच्छासुमतिर्वाजुमस्मति आधेनुरेव धावतु रथो यो वान् त्रिबन्धुरो हिरण्याभिसुमस्विना अविद्या वा पृथिवी भूषदिश्रुतस्तेन न सत्यागतम् रसस्यम् तापन वे पूर्व्यम् दिविजवमृगेण कर्षतः आवामद्यसुमतिभिस्तुभस्पति अश्विना त्वस्तु वीमहि उपानो वाजिनी वसु जातमृतस्य पथिभिः देभिस्तृक्षिम् रेगणात्रा सदस्यवम् महे क्षत्रा यजिन्वसः अयम् भावद्रीभिः सुतः सोमो नरावृषण्वसु आयातम् सोमपीतये पिबातम् दासुषो गृहे आहिरुभतमस्मि दादथे कोशे हिरण्यजे वृषण्वसु युञ्जाथाम् पीबरीरिषाः याभिः पक्षमवथो याभिरद्रीगुम् याभिर्बभ्रुम् विजोषदम् ताभिन्नो भक्षूतूयमश्विनागतम् विभज्यतम् यदा दूरम् यदध्रीगावो अध्रीगो यदाचिदन्नो अश्विनाहवाभे वयङ्गीर्भिर्विपञ्जवाः ताभिराजातम् ऋषणोपमेहवम् विश्वप्सुम् विश्ववाल्यम् इरामम् ह्यष्ठा पुरभूतमानराजाभिकृणिम् वा बृहस्ताभिरागतम् ताभिराचितानाम् तावस्विना वन्दमानमुपब्रुवे ताभूनमोऽभिरीमहे ताविद्रोणादाभुषसि शुभस्पतीशायामम् रुद्रवर्तनी मानो वर्ता जनिपवे वाजिनी वसुपरो रुद्रापदीक्षतम् आयुज्ञायसुज्ञम् प्रातारथेनाश्विना वासक्षणी भुवे पिते वसोभरी मनोजवसावृणनामदरच्युतामक्षम् गमाभिरुतिभिः आरात्ताच्चिद्भूतमस्ते अवसे भूर्येभिः पुरुभोजसा आनो अश्वापदश्विना भक्तिर्यादिष्टम् मधुपातमानरा गोवर्धस्रा हिरण्यवत् सुप्रामर्गम् सुवीर्यम् सुष्ठुवार्यमना धृष्टम् रक्षस्विना अस्मिन्नावा वाजाने वाजिनी वसु विश्वा वामानि धीमहि ईलिष्वा हि प्रधीव्या अञ्जजस्व जातवे रसम् सरिष्णुधो मम गृभीतसो दिशम् धामानम् विश्वदर्शनेऽग्निम् विश्वमनो गिरा उदरसोषे विश्वर्धसोरसानाम् येणामा बाधरिग्मिय इव वृक्षस्तनिग्रहे उपविधावन्निर्विन्ददेवसु उदस्य सोचिरस्ताद्येषोऽव्या अजरम् समुद्रम्भस्य सुद्युतो गणश्रियाः उदो निष्ठस्वध्वरस्तवा नो देव्या कृपा अभिक्षा भासाभिहासु शुक्रणीः अग्नेयाभिषु स्वस्तिभिर्हव्यायुक्वानानुषग् यथा दूतो बभूथ हव्यवाहनः अग्निम् वः पूर्यम् भूगे होतारम् दर्शनीनाम् समया वाचाग्रे तमो वस्तुषे यज्ञेभिरद्भूतक्रदुल्यम् कृपासूरयम् रजत् नेत्रम् न जने सुधीतमृतावलि ृतावानमृताय वो यज्ञस्य साधनम् गिरा उभोजेनम् जुजुषन्नमसस्पते अच्छादो अङ्गीरस्तमम् यज्ञासोऽयन्तु संयताः होदायो अस्ति विक्ष्वायसस्तमः अग्नेतपत्ये अजलेम्भानासो बृहद्भाः अश्वायिव वृषाणस्तविषीयवाः सत्त्वम् न भूर्जाम्बतेरिम्रास्वसुवीर्यम् रावणस्तोकेतनये समत्स्वा यद्वावो विश्वतिश्रुतः सुप्रीतो मनुषोभिः विश्वेधग्निः प्रतिरक्षाम् निषेधति सृष्ट्यग्ने नमस्य मे स्तोमस्य वीरविश्वते हिमालिनस्तपूषा रक्षसोदः न तस्य मायया च नरिपुरीशीतमर्त्याः यो अग्नये ददा स हव्यराजिभिः य स्वस्वापसुविदमोक्षण्यरप्रीणादृशीः मो राजे नमुत्वा समी धीमहि व्यस्वादिहोतारमसादयत् आयतिम् त्वामनवे जातवेदसम् विश्वे हित्वा सजोषसो देवासो दूतमक्रत सृष्टिदेव प्रथमो यज्ञो भुवः युमङ्गा वीरो अमृतम् दूतम् कृण्वीतमर्त्याः पावकम् कृष्णवर्तनिविहायतम् शम्भूमेमयतश्रूतः सुभासम् शुक्रसोदिशम् विशामग्निमजरम् व्रत्रवीड्यम् यो अस्मै हव्यदादिभिराहूतिम् मत्वो वीधत् भूरिपोषम् दधत्ते वीरभद्रसाः प्रथमम् जातवेदसमग्निम् यज्ञेषु पूर्यम् प्रतिश्रुये जिगमसा हविष्मति आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यस्वपत् मम्भ्यष्टाभिर्मतिभिः सुत्रसोदिषे नूनमर्चविघायसे सोमेभिः स्थूरयो भवत् ऋषे वैयस्वदम् याजाग्नये अतिथिम् मानूषाणाम् सूनम् वनस्पतीनाम् विप्रा अग्निमवसे परत्रमीरते महो विश्वाभिरतो ओभिहत्यादिमानूषा अर्धे निषत्सि नमसाधि बर्हिषि अवं स्वानो भार्या पूर्वं स राजः पुरुस्पृहाः सुवीर्यस्य प्रजापतोजसस्वतः संवरो सुषाम्ने ज्ञेजनाय चोदय सदा वसो राजिङ्गविष्ठदस्वते त्वं यशु प्रदूरभित्वं लोकोपतीर्षाः महो राजस्वादिमग्ने अपारधिः अग्ने त्वम् यशा अस्य मित्रावरुणावः दावानासम् राजा भूतदक्षसा सखा जासीषामहे ब्रह्मेन्द्राय वज्रिणे सुषभूषुभोनृतमाय धृष्णवे शपसाह्यसि श्रुतो वृत्रहत्येन वृत्रः मघैर्मघो नो अतिशूलदाससि नस्तवा न आभररयम् चित्रश्रावस्तमम् रेके चिद्यो हरिवो वसुर्धरिः आनीरेकमुत प्रियमेन्द्रदर्शिगनानाम् धृषदा धृष्णास्तवमानाभर न ते सव्यम् न दक्षिणम् हस्तम् वरन्त आमुराः नवरिबाधो हरिभोगविष्टिषु आत्मा गोभिरिव व्रजम् गेर्भर्वेणान्यद्रिवः आस्माकामम् दरिदुरामनः पुनः विश्वानि विश्वमानसो धियानो वृत्रहन्तम उग्रप्रणेतरधिषुवासोगहि वयम् ते अस्य वृत्रहन् विद्यामसूरनव्यासः वसोऽर्हस्य पुरुहूतराधसः इन्द्रयथा ह्यस्तिते परीतम् ऋतो सवाः अवृत्ता रातिः पूरुहूतदासुषे आवृषस्व महामहमहेन्द्रतमराधसे ऋढश्चिद्रश्यमघवन्मघत्तये नो अन्यत्रातिदद्रिभस्त्वन्नो जग्मुरासः मघवन्छग्भिदपतन्न भूतिभिः न ह्याङ्गतो त्वधन्यम् बिन्दाभिराधसे रारे जुम्नायजपासे च गुर्वणः येन्दुमिन्द्राय सिञ्चत पिपादि सोम्यम् मधु स्वराधसा चोदजाते महित्वना उपोहरीणाम् पतिम् दक्षम् वृञ्चन्तमब्रवम् नूनम् श्रोधिस्तु पतो अश्वस्य न ह्या अङ्गपुराचनजज्ञे वीरतरस्वत् नी राजानैव धानभन्धना ये दुमध्वो मदिन्द्रम् सिंहाध्वर्यो अन्धसः ये वाहि वीरस्तव ते सदा वृधः इन्द्रस्तादर्हरी नाम्यगष्टे भूर्यस्तूतिम् उदानम् स सपसानबन्धना तम् भो बाजानाम् प्रतिमहूमहिश्रभस्यवाः अप्रायुभिर्यज्ञे भर्वावृधेऽन्यम् एतोन्विन्द्रम् स्तवा भसखायस्तोम्यम् नरम् दृष्टीर्यो विश्वा अभ्यस्ते गलित् अगोरुधाय गविषे दुःक्षाय दस्यम् वदाः धृतास्वादीयो मधूनश्च वोचत यस्यामीतानि वीर्या आनराधः पर्येतवे यो जन्मविश्वामभ्यस्विलक्षीणा सुहीन्द्रम् यस्वदनोर्मिम् वादिनम् जयम् अधर्योगजम् मङ्घमानम् विदासुषे ैरस्वदसमन्वम् सुविद्वांसम् सकृत्यम् चरणीनाम् मेच्छाहिर्वीनाम् वज्रहस्तपरिवृतम् अगारहस्मिञ्जुह्वरिपदानिव यदिन्द्रापाभरजेनादम् तिष्ठकृत्वाने यसि स्मधोदया समुत्वा नूनमीमहेलव्यम् तम् दृष्टसञ्जासे सत्त्वन्नो विश्वा अभिमाजी सक्षणीः यरक्षातम् ह्रासो मुचद्यो वार्या सप्त सिन्धुषु अधरद्वासस्य दुविनम्मनी नमः यथावरोषुणाम् मे धनेभ्यावहोरयम् यस्वेभ्यः सुभगे वाजिनीवति आनार्यस्य दक्षिणाभ्यस्वाम्येतु सोमिनाः स्थूलम् जराधः सतवः सहस्रवत् यत्त्वा वृच्छादी जानः कुहयाकुहयाकृते येषो अपश्रितो भरोगो मतीमवतिष्ठति ओ